सर्वेभ्यो नमः, स्वागतं। प्रथमतया वयं प्रार्थनां वदामः। श्राता भगिनी,
ॐ सहना भवतो, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतो, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतो, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरि ॐ श्रीगुरुभ्यो नमः। हरि ॐ।
धन्यवादः भगिनी। अस्तु, गतवर्गे वयं लङ्लकारस्य विषये किञ्चित् पठितवन्तः, परिचयं कृतवन्तः, अपि किञ्चित् अभ्यासं कृतवन्तः। अद्य वयं गीतासोपाने पुटसङ्ख्या 84 मध्ये तत्र सप्तमः अभ्यासः अस्ति, तत् वयं कुर्मः इदानीम्। अस्तु, एकनिमिषम्। लक्ष्मी भगिनी, भवती पठति वा? अत्र उदाहरणानि पठित्वा नम् धातोः रूपाणि अत्र वदतु, मध्यमपुरुषस्य। अत्र किं भवति चेत्, पट् इति अस्ति चेत् प्रथमपुरुषस्य त्रीणि वचनानि वक्तव्यम्, एकवचनं, द्विवचनम्, अपि बहुवचनं। तत्र लङ्लकारे तत्र पट् धातोः पठति, तत्र प्रथमपुरुषे अपठत्, अपठताम्, अपठन् इति भवति। अस्तु, इदानीं लक्ष्मी भगिनी, भवती द्वितीयम् उदाहरणम् उक्त्वा नम् धातोः करोतु।
नम् धातु
शुच् धातुः पठित् तस्य रूपाणि पठित्वा नम् धातोः करोतु।
उच्यते अशोचत्, अशोचताम्, अशोचन्, प्रथमपुरुष शुच् धातु। नम् धातु मध्यमपुरुष अन अन मध्यमपुरुष अनमः, अनमच, अनम, अनमत, अनमतम्, अनमत।
समीचीनं।
वद् धातु
अत्र स्थगयतु इदानीं। नागेन्द्र महोदय, भवान् करोति वा? चरति,
चरति मध्यमपुरुषः।
न न, सारी, क्षम्यतु, वद् धातुः, वद् धातुः।
उत्तमपुरुषः भगिनि?
आम्।
अवदम्, अवदाव, अवदाम।
समीचीनम्। इदानीं राधा भगिनी, भवती चरति इत्यस्य करोतु।
चर् धातो मध्यमपुरुषः, अचरः, अचरतम्, अचरत।
समीचीनम्। इदानीं लक्ष्मी भगिनी, स्था धातोः प्रथमपुरुषस्य।
स्था धातु प्रथमपुरुष,
अत्र अतिष्ठत्,
अतिष्ठताम्, अतिष्ठताम्, अतिष्ठत्, अतिष्ठत्, अतिष्ठताम्, अतिष्ठत,
अतिष्ठन्। समीचीनम्। इदानीं हृ धातुः, नागेन्द्र महोदय।
मध्यमपुरुषः, त्वम्, अहरः, यूयाम्, अहरतम्, यूयम्, अहरत।
समीचीनम्। इदानीं निया धातोः, राधा भगिनी।
न्या धातु उत्तमपुरुषः अजानाम् अजानाव अजानाम।
समीचीनम्। इदानीं लक्ष्मी भगिनी आ उपसर्गः योगः गम् धातुः।
आ योग गम् धातु आगच्छत् आगच्छत् आगच्छताम् आगच्छन्।
समीचीनम्। अस्तु इदानीं पत् धातुः नागेन्द्रमहोदय
भगिनी केन् यू मूव् द पेज् स्लैट्लि
एकनिमिष
पद् धातु मध्यम पुरुषः अपततः अपततम् अपपत अपतत।
एकवचनं पुनः वद।
अपततम्
अपतः
अपतः अपतः।
धन्यवादः भगिनि।
समीचीनम्। अस्तु इदानीं राधा भगिनी भवती करोति वा।
दृश् धातु उत्तमपुरुषः अपश्यम् अपश्याव अपश्याम।
समीचीनम्। अस्तु अनन्तरं लक्ष्मी भगिनी भवती ब्रह्म धातोः करोतु।
ब्रह्म धातु प्रथमपुरुष अभ्रमत् अभ्रमताम् अभ्रमत्।
समीचीनम्। इदानीं स्मृधातुः नागेन्द्रमहोदय।
अस्मरः अस्मरतम् अस्मरत।
समीचीनम्। इदानीं राधा भगिनी गै
गै धातु उत्तमपुरुषः अगायम् अगायाव अगायाम।
समीचीनम्। अनन्तरं अत्र किञ्चित् अस्तु कुर्मः लक्ष्मी भगिनी भवती करोतु।
प्रच् धातु प्रथमपुरुषः अपृच्छत्
अस्तु अनन्तरं श्रुधातुः शृणोति तस्य अश्रुणुः अश्रुणुतम् अश्रुणुत इति भवति। अस्तु अश्रुणुः अश्रुणुतम् अश्रुणुत। अस्तु परन्तु तस्य शृणोति इति भवति शृणोति अश्रुणुतम्। अस्तु अनन्तरं कत् धातोः राधा भगिनी।
कत् धातु प्रथमपुरुषः अकथयत् अकथयताम् अकथयन्।
समीचीनम्। इदानीं तस्य पूर्वस्मिन् पुटसङ्ख्यायाम् अत्र अत्र अचलत् अपश्यत् अतिष्ठत् ऐच्छत् तत्र परस्मैपदी धातोः लङ्लकाररूपाणि सन्ति किन्तु अत्र भाषते भ्रूते तस्य भ्रूते तस्य विशेषक्रियापदमस्ति तत्र लट्लकारस्य रूपाणि ब्रूते ब्रुवाते ब्रुवन्ति इति भवन्ति परन्तु भाषते इत्यस्य रमते तादृशं भवति तस्य सामान्य आत्मनेपदी क्रियापदमस्ति भाषते। अस्तु इदानीं लक्ष्मीभगिनी भवती भाषते इत्यस्य रूपाणि अत्र पठतु।
भाषते प्रथमपुरुष भाषत् अभाषत् अभाषत अभाषेताम् अभाषन्त मध्यमपुरुष अभाषताः अभाषेताम् अभाषत्वम् उत्तमपुरुष अभाषे अभाषावहि अभाषामहे.
समीचीनम्. अत्र अभाषत अभाषेताम् अभाषन्त अभाषथाः अभाषेथाम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि इति भवति रूपाणि. अस्तु, इदानीं नागेन्द्र महोदय अत्र अस्ति रमति
मध्यमपुरुषः. रम्येते
रमते
मध्यमपुरुषः रमेशथाः अरमताः
अरमताः
अरमेथाम् अरमेध्वम् अरमध्वम्
रूपाणि अरमथाः अरमेथाम् अरमध्वम्.
एताम् एधाम् ध्वम्
एथाम् ध्वम्. अस्तु, समीचीनम्. इदानीं ईक्षदातुः अत्र ईक्षते इति भवति. अस्तु, तस्य किं भवति अत्र उत्तमपुरुषस्य रूपाणि सन्ति. राधा भगिनी भवती करोति वा?
ईक्ष उत्तमपुरुष ऐक्षे
ऐक्षे
ऐक्षे एक्षावहि एक्षामहि
ऐक्षावहि ऐक्षामहि.
ओ, ऑल ऑफ देम शुड हैव द आई. इज
किमस्ति चेत् तत्र ईक्षते एव धातुः अस्ति. ईक्षते एव क्रियापदम् अस्ति, परन्तु तत्र लङ्लकारे वयम् अकारः योजयामः किल. तत्र अ योजयामः चेत् अ योगः ई ई ऐ इति भवति.
ओ, अ योगः ई बिकम्स् ऐ. ओके,
तस्य कारणात् ऐक्षावहि ऐक्षामहि ऐक्षे इति तस्य रूपाणि भवन्ति. अस्तु, इदानीं लक्ष्मी भगिनी भवती समापयति वा अत्र सेव् धातु?
सेवते धातु प्रथमपुरुषः असेव असेवत असेवताम् असेवन्त.
समीचीनम्.
असेवेताम् रैट् भगिनि?
असेवेताम् प्रथमपुरुष
असेवेतम्
असेवत असे अस असेवेताम् असेवन्त.
समीचीनम्. अस्तु, इदानीम् अत्र लङ्लकारस्य प्रश्नाः सन्ति वा? अस्तु, न सन्ति चेत् गतवर्गे वयं प्रथम परस्मैपदिधातोः अभ्यासं कृतवन्तः. इदानीं किञ्चित् वयं आत्मनेपदिधातोः किञ्चित् अभ्यासं कुर्मः. अस्तु, अत्र भवन्तः किं किम् आत्मनेपदी क्रियापदानि जानन्ति?
कम्प
एकनिमिष. आत्मनेपदी क्रियापदानि तत्र कम्पते भवति, अनन्तरं
शेते
कम्पेते
तत्र कम्पेते तस्य रूपाणि भवति कम्पते इत्यस्य अस्तु अनन्तरं तस्य वयं कथां पठितवन्तः किल
वन्दते भगिनि वन्दते
रोचते
रोचते अन्यत् किं
शक्यते
आम् एकनिमिष अस्तु अनन्तरं तत्र कथां मम पुस्तके कुत्र कथमिति पश्यामि अस्तु अत्र अस्ति भाषते इदानीमेव पठितवन्तः
भजते लभते
समीचीनं एकनिमिषः भाषते भवान् किमुक्तवती महोदय
भजते
भजते
लभते
स्मयते
स्मयते स्मयते
अनन्तरं
मोदते
आम् रमते
वर्धते
नयते
अस्तु अतः स्थगयामः अत्र कम्पते इति प्रथमः क्रियापदं वयं उक्तवन्तः तस्य लङ्लकारस्य रूपाणि किं लङ्लकारे तस्य किं भवति
कम्पते कम्पेते कम्पन्ते
न न न लङ्लकारे लट्लकारे
अकम्पत
अकम्पत अस्तु अकम्पत अकम्पन्
अकम्पेताम्
अकम्पताः अकम्पेताम् अकम्पत्वम् अकम्पे अकम्पावहि अकम्पामहि इति भवति अस्तु अस्तु इदानीं रमते एकनिमिषः एकनिमिषः राधा भगिनी भवती करोतु
अरमत् अरमेताम् अरमन्त अरमताः अरमेताम् अरमध्वम् अरमे अरमावहि अरमामहि
समीचीनम् अस्तु अनन्तरं भाषते नागेन्द्र महोदय भजते भजते
अभजत् अभजेताम् अभजन्त अभजथाः अभजेथाम् अभजध्वम् अभजे अभजावहि अभजामहि
समीचीनम् अस्तु अनन्तरं स्मयते स्मयते लक्ष्मीभगिनी भवती करोतु स्मयते इति
स्मयते अस्मयत अस्मयते ताम् अस्मयन्ते अस्मयन्त ओके अस्मयन्ते अरस्मयन्त अस्म स्मयत स्मयत स्म स्मयत ओके अस्मयताः अस्मयते ताम् अस्मयत्वम् अस्मये अस्मयामहे.
समीचीनम्. अनन्तरं नागेन्द्रन् महोदय लभते.
लभते अलभत् अलभेताम् अलभन्त अलभथाः अलभेथाम् अलभध्वम् अलभे अलभ अलभावहि अलभामहि.
समीचीनं महोदय. अस्तु इदानीं राधा भगिनी भवती मोदते कृतवन्तः वा?
नो भगिनि.
अस्तु मोदते करोतु.
अमोदत् अमोदेताम् अमोदन्त अमोदताः अमोदेताम् अमोदध्वम् अमोधे अमोदावहि अमोदामहि.
समीचीनम्. अस्तु इदानीम् अस्तु एकनिमिषः किञ्चित् एकनिमिषं अहं स्क्रीन् च स्टाप् करोमि. तत्र एकः ग्लिच् अस्ति. एकनिमिषः.
Bhagini, are we there?
Astu, I don't know what happened, but every day, every time we meet, at this time I get some glitch. Astu, Kshamyatam, for some reason, every day at this time I get some glitch. That I don't know how to solve. So okay, so I'm back. Idanim atmanepadi kriya padanam kinchit abhyasam kritavantah. Idanim agre gachyama. Atra langlakarasya visaye aham kinchit graha patam kurmah dadami kritva agachantu krupaya. Astu
bhagini, ek prashnam asti bhagini. ब्रूदातु किञ्चित् भिन्न मध्यमपुरुषः किञ्चित् भिन्नम् अस्ति.
अत्र ब्रूदातुः विशेषधातुः अस्ति. कुरुते तस्य
केन् वि हाव् समोर् धातुस् विच् आर् लैक् द ब्रूदातु भगिनि?
अस्तु लुकर् some ones that will be like this and I'll send some.
Okay, buddy.
The thing is, bru iti asti tatra abruvi iti vi vikaraha vakaraha asti atra anantara mata bru iti. Here it is long, here it is short. Astu. इदानीम् अग्रे गच्छामः. अत्र प्रश्नाः सन्ति वा? अस्तु अनन्तरं स्म. अस्तु अत्र पितामही कः भवति? अस्तु, नागेन्द्रमहोदय भवान् पितामही भवतु, अनन्तरं राधा भगिनी भवती पालकः भवतु. वदन्तु.
न पश्यत् पश्यामि
ओ एकनिमिष एकनिमिष.
आम् वक्त अहं ह्यः एकां कथाम् अश्रावयम्, स्मरसि किम्?
आम् स्मरामि.
तर्हि वद, कः कः किं किं करोति स्म?
सञ्जयः श्रावयति स्म, धृतराष्ट्रः शृणोति स्म, अर्जुनः दुःखम् अनुभवति स्म, कृष्णः बोधयति स्म.
सम्यक्. कृष्णः किं करोति स्म?
कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म, सर्वेषु उत्साहं पूरयति स्म, अश्वानां परिचरणं करोति स्म, सर्वान् युद्धनीतिं बोधयति स्म, रथं चालयति स्म, अर्जुनस्य रक्षणं कुरुते स्म.
समीचीनं. अस्तु अस्तु, अत्र प्रश्नाः सन्ति वा तस्य विषये? अत्र प्रश्नाः सन्ति तस्य, अत्र प्रश्नाः सन्ति वा एतस्य विषये?
आं भगिनि, स्म किं कारणार्थं तत्र प्रयुज्य?
अत्र हि वास् गोयिङ्ग्, अत्र श्रावयति स्म, सञ्जयः श्रावयति स्म, अत्र वाक्यमस्ति सञ्जयः श्रावयति स्म, तत्र श्रावयति, सञ्जयः श्रावयति, दट् मीन्स् सञ्जयः सेस्. अस्तु, परन्तु श्रावयति, अत्र स्म इति योजयामः चेत् किं भवति? सञ्जयः श्रावयति स्म इति भवति. तत्र स्म किमर्थम्? इदानीम् आङ्ग्लभाषायां कथं वदामः? हि वास् सेयिङ्ग्, तत्र इट् वास् बीङ्ग् डन् मल्टिपल् टैम्स्. हि डिडन्ट् जस्ट् से, हि इस् नाट् सेयिङ्ग् रैट् नौ, and he didn't say that, he was saying, he was going to that place, like that.
So past continuous tense, is that the use?
Past continuous. Am bagini. That's correct, past continuous.
And this does differ from the aham because of the harshwa bagini? Asti, sta, santi, asmi, swahasmaha.
Tatra, it has no relation with aham, sma.
But that is the difference. That has halaswa and this doesn't have halaswa.
Swaha smaha.
Sma e avyayam din?
Samichya. Asso, atra. Prashna haste. Kaha shravayati sma?
Sanjay shravati sma.
Shravayati. इदानीं राधा भगिनी, कः दुःखम् अनुभवति स्म?
अर्जुनः दुःखम् अनुभवति स्म.
इदानीं लक्ष्मी भगिनी, कृष्णः सर्वेषु किं पूरयति स्म?
कृष्णः सर्वेषु उत्साहं पूरयति स्म.
कः रथं चालयति स्म? नागेन्द्र महोदय.
कृष्णः रथं चालयति स्म.
समीचीनम्. इदानीं राधा भगिनी, कृष्णः कस्य रक्षणं कुरुते स्म?
कृष्णः अर्जुनस्य रक्षणं कुरुते स्म.
समीचीनम्. इदानीं लक्ष्मी भगिनी, कः कथां शृणोति स्म?
बालकः शृणोति स्म.
समीचीनम्. न न न अत्र तत्र अत्र किमस्ति, तत्र त्रीणि उत्तराणि सन्ति. अत्र किं भवति, बाल तत्र पितामही उक्तवान्, ह्यः उक्तवान्, बालकः श्रुतवान्, तदर्थं तत्र श्रुतवान् इति वक्तुं शक्नुमः. अपि इदानीं बालकः वदति, तदा पितामही श्रुणोति, तदा तत्र पितामही अपि भवितुम् अर्हति. परन्तु अत्र धृतराष्ट्रः शृणोति स्म इति भवति, तत्र धृतराष्ट्रः अपि भवितुम् अर्हति. आं भगिनि,
पितामहे बालकः धृतराष्ट्र.
आं
धृतराष्ट्र.
परन्तु अत्र कृष्णः बोधयति स्म इति अपि अस्ति, तत्र तदा अर्जुनः शृणोति. यदा कृष्णः बोधयति तदा अर्जुनः शृणोति, तत्र अपि अर्जुनः अपि भवितुम् अर्हति.
अर्जुनः आल्सो, सो फोर्
राष्ट्र शृणोति.
अस्तु, प्रश्नाः सन्ति वा?
नास्ति भगिनि.
अस्तु, अनन्तरम् अत्र यतोदाहरणं पुरतः विद्यमानं धातुः पठित्वा वाक्यानि रचयत. अत्र अर्जुनः धनुर्विद्यां, तत्र न्यादातुः अस्ति, न्यादातुः जानाति अस्ति, जानाति स्म. अस्तु, अर्जुनः धनुर्विद्यां जानाति स्म. अस्तु, इदानीं लक्ष्मी भगिनी भवती करोतु द्वितीयं.
भीमः बहु खादति स्म. बहु खादति स्म. दुर्योधनः ईर्ष्याः क्रु धातु करोति स्म.
ईर्ष्यां करोति स्म. अस्तु, अनन्तरं नागेन्द्र महोदय.
कृष्णः लीलां पश्यति स्म.
अस्तु, अनन्तरं भवान् एव पञ्चममपि करोतु.
भीष्मः कौरवाणां पक्षतः युद्धं
युध्यति
युध्यति स्म.
समीचीनम्. अनन्तरं राधा भगिनी.
शकुनिः सर्वदा कुटं रचयति स्म.
समीचीनम्. अनन्तरं
कौरवाः पाण्डवान् न इच्छन्ति स्म.
अनन्तरं लक्ष्मी भगिनी त्रीणि अपि करोतु.
युधिष्ठिरः सत्यं ब्रूते स्म.
ब्रूते अथवा ब्रवीति.
ब्रवीति,
तत्र उभयपदि धातुः अस्ति, किमपि वक्तुं शक्नुमः.
अर्जुनः भाषते स्म. सैनिकाः लोकधातु लोकन्ते स्म.
समीचीनम्.
Is it lokante or lokanyanti?
Lokanta, lokante. I have somewhere lokante also.
लोकते इति भवति, लोकते, लोकेते, लोकन्ते.
लोकन्ते.
अस्तु, प्रश्नाः सन्ति वा? अस्तु, अस्तु, एकनिमिष एतत् कुर्मः. बालकः पठति स्म, बालकौ पठतः स्म, बालकाः पठन्ति स्म. तत्र एकवचने दत्तमस्ति, तस्य द्विवचनमपि बहुवचनं कुर्मः. अस्तु, इदानीं लक्ष्मी भगिनी नागेन्द्रमहोदय भवान् करोतु उदाहरणम् उक्त्वा द्वितीयं करोतु.
आं भगिनि.
आम् आं महोदय.
शिशुः sorry balakah patati sma balakah patatah sma balakah patanti sma
samichinam
shishu khelati sma
shishu
shishvah
nara shishu shishu shishavah
shishu shishu shishvah shishu khelatah smah शिशवः खेलन्ति स्मः
अत्र महोदय भवान् स्मः इति वदति विसर्गः न भवति अत्र स्म समीचीनम् अनन्तरं राधा भगिनी मुनिः
मुनिः जपति स्म मुनिः जपतः स्म मुनयः जपन्ति स्म
समीचीनम् इदानीं लक्ष्मी भगिनी
वधूः समाचारं पठति स्म वधूः समाचारं पठतः स्म
वधूः
समाचारं पठन्ति स्म
समीचीनम् अस्तु अहं ध्यायामि स्म नागेन्द्रमहोदय
अहं ध्यायामि स्म आवां ध्यायाव स्म वयं ध्यायामः ध्यायायं स्म
समीचीनम् अस्तु अनन्तरं
आवाम् आय आमि आवः अमः
ध्यायाव एण्ड् ध्यायाम राइट
आं भगिनि ध्यायाव ध्यायाम ध्यायाव ध्यायायम्
ध्यायति ध्यायतः ध्यायन्ति ध्यायसि ध्यायतः ध्यायत ध्यायामि ध्यायाव ध्यायाम
ध्यायाम
ध्यायामि आवां ध्यायाव वयं ध्यायाम अनन्तरम् अटति राधा भगिनी भवान् भवती करोति
भवान् अटति स्म भवन्तौ अटतः स्म भवन्तौ भवत्यः अटन्ति स्म
भवन्तः कदा भवन्तः
भवान् भवन्तौ भवत्यः
भवन्तः
ओ भवान् ओके
अस्तु इदानीं लक्ष्मी भगिनी
एषः पाठं स्मरति स्म एतौ पाठं स्मरतः स्म एते पाठं स्मरन्ति स्म
अनन्तरं नागेन्द्रमहोदय भवान् अष्टमं करोतु एकनिमिष
भवती विषयं चिन्तयति स्म भवत्यौ विषयं चिन्तयतः स्म भवत्यः विषयं चिन्तयन्ति स्म
अस्तु इदानीं नवमः अस्ति तत्र उदाहरणम् अस्ति तत्र इदानीं किं कुर्मः इदानीं आत्मनेपदीक्रियापदानि सन्ति सः सुखं लभते तौ सुखं लभेते ते सुखं लभन्ते इति तत्र स्म इति योजयामः चेत् सः सुखं लभते स्म तौ सुखं लभते लभेते स्म ते सुखं लभन्ते स्म. अस्तु, इदानीं सा मोदते स्म. राधा भगिनि,
सा मोदते स्म, ते मोदेते स्म, ता मोदन्ते स्म.
अस्तु, समीचीनम्. अनन्तरम् अहं याचे स्म. लक्ष्मी भगिनी,
अहं याचे स्म आवां वाचेते स्म, याचेते स्म, आवां याचेते स्म, वयं याचन्ते स्म.
समीचीनम्. अस्तु, प्रश्नाः सन्ति वा
भगिनि? याचे, हेल्प् मी अगेन् भगिनि.
याचे, याचा,
महे, याचामहे.
याचे, याचेते, याचे, याचन्ते.
याचा, याचे, याचावहे, याचामहे.
अहम्, अहम्, अहं याचे, ओके, अहं, वयं याचावहे स्म, अवाम्, आवां याचावहे स्म, वयं याचामहे स्म. अहम्.
समीचीनम्. अस्तु, प्रश्नाः सन्ति वा? अस्तु, एकम् अभ्यासं कुर्मः. अहम् एकं वाक्यम् अत्र लिखामि. अस्तु, अस्तु, वयं दशनिमिषाः सन्ति, किञ्चित् कथां पठामः. तत्र क्रोधपिशाचः इति गीतासोपाने द्वितीया कथा अस्ति. अस्तु, अस्तु, किञ्चित् पठामः. अस्तु, प्रथमतया प्रथमं परिच्छेदं राधा भगिनी भवती पठतु, अनन्तरं वाक्यं पठामः, अपि कर्मपदं क्रियापदं सर्वं कुर्मः.
फस्ट् पेराग्राफ् भगिनि. Should I read the first paragraph?
आं भगिनि.
आं भगिनि.
एकदा श्रीकृष्णः बलरामः सत्याकी च वनविहारार्थं गतवन्तः आसन्. वने ते मार्गभ्रष्टाः जाताः. निबद्धं वनं प्रविष्टवन्तः. रात्रिः सज्जाता. तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरीतः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः.
समीचीनम्. अत्र स्थगयतु. अस्तु, एकदा श्रीकृष्णः बलरामः सात्यकी च वनविहारार्थं गतवन्तः आसन्. अस्तु, अत्र क्रियापदं किम् अस्ति?
गतवन्तः.
अत्र इदानीं क्रियापद वाक्यस्य क्रियापदं किम् इति अहं पृच्छामि चेत् तस्य लकारे किं भवति तदेव वाक्यस्य क्रियापदम्. अस्तु, अत्र वयं गतवन्तः आसन् इति वाक्यमस्ति. तत्र क्रियापदं किम् इति पृच्छामः चेत् आसन् एव वयं वदामः. गतवन्तः इदानीं न वदामः. अस्तु, गतवन्तः किम् अस्ति चेत् तत्र गम् धातोः गतवन्तः इति अस्ति किल, गतवन्तः रूपम् अस्ति परन्तु लकारः नास्ति. इट्स् लैक् अ नौन् फार्म् आफ् द वर्ब् बिकास् इट् हास् गतवन्तः, गतवान्, गतवती इति तस्य लिङ्गम् अस्ति. परन्तु आक्चुल् क्रियापद वर्ब्स् डोण्ट् हाव् द feminine masculine thing, so we'll think of that as like kriya padam for a word but not for the whole sentence. Asto it's like helping us understand the whole sentence, so like helping the verb. Tatra vakyasya kriya padam asti asan. तस्य यू केन् थिङ्क् आफ़् इट् एस् अ विशेषणम्. इट्स् लैक् हेल्पिङ्ग् अस् अण्डर्स्टाण्ड् गतवन्तः आसन्, वनविहारार्थं गतवन्तः. दट्स् लैक् अनदर् सेण्टेन्स्, ते वनविहारार्थं गतवन्तः इति. अस्तु, एकदा किम् अस्ति?
एकदा इस् अव्ययम्.
समीचीनम्. कृष्ण, श्रीकृष्णः, बलरामः, सात्यकिः किं भवति?
कर्तृपदम्
आम् आम् च किं भवति?
अव्ययम्
आम्. गतवन्तः
तवतु प्रचयम्
आम्, तवतु प्रत्ययः. आसन्
आसन् क्रिया,
क्रियापदम्. अनन्तरं वने जस्ट् एन् एक्स्ट्रा, जस्ट् वै देवर् गोयिङ्ग्, किमर्थं वनविहारार्थं.
देर् इस् नो
लैक् इट् हेस् नो पोजिशन् इन् द सेण्टेन्स्.
समथिङ्ग् भगिनि?
नो,
नाट् कर्मपदं.
न, अहं विद्यालयं गतवती. दट् मीन्स् ऐ वेण्ट् टु द स्कूल्. But if I say aham adhyayanartham gatavati, I went to adhyayanartham, doesn't make sense. I went for studying, I went to study, the meaning becomes like that.
Okay.
For now we won't identify it as anything. Astu. Anantaram vane ते मार्गर मार्गभ्रष्टाः जाताः. अत्र किमस्ति वने इति?
सप्तमी
विभक्ति. बहुवचने किं भवति? सप्तमी विभक्तिः बहुवचने. अस्तु, समीचीनम्. इदानीं ते इति मार्गभ्रष्टाः. विशेषणम् इति चिन्तयन्तु. तत्र किं जाताः? मार्गभ्रष्टाः जाताः.
द्विवचन किमस्ति भगिनि?
गतवान्, गतवन्तौ, गतवन्तः. बहुवचनमस्ति तत्र गतवन्तः इति. अस्तु, इदानीम् अत्र ते जाताः इति अस्ति. सः इति कर्तृपदमस्ति चेत् क्रियापदं किं भवति? जातः. जातः इति बहुवचनमस्ति, इदानीं जातः इति वदामः. इदानीं सा इति अस्ति चेत् किं वदामः? जाता. अस्तु, अनन्तरं निबिरं वनं प्रविष्टवन्तः. अस्तु, निबिरम् इत्युक्ते बिग् एण्ड् हालो फारेस्ट्. दे रीच्ड् अ बिग् फारेस्ट्. अस्तु,
बिग् डिड् यू से?
लैक् दट्.
प्रविष्टवन्तः इस् एण्टर्
आम् तत्र डेन्स् इति भवति फ्रेम् एण्ड् लो एण्ड् डेन्स् एण्ड् क्लोस् अस्तु
भगिनि so in this sentence nibidam vanam pravishtavantah pravishtavantah is not the kriya here is it
it is
the kriya right
kriya
tava tu pratyay bhavach
and so I said that you cannot think of it as the kriya padam of the whole sentence but here it is the only thing but you can always add निबिडं वनं प्रविष्टवन्तः आसन्
still keep then आसन् would become the क्रियापदम्
it still is the क्रियापदम् because it's not just said because it still makes sense as this short we get the meaning right they're still expressing the same amount of information even if you put asti or not
asti धन्यवाद
and it is grammatically right to say nibiram vanam pravishtavantah but in a kata it's better because then you know who vane te marga prashtah so we know that te is the kartripadam here astu even though we could find that out but you can say govindah ramah api lakshmanah nibiram vanam pravishtavantah then the kartripadam wouldn't be te but so it's better if you just write that sentence just if I say just make a sentence then you cannot just write nibiram vanam pravishtavantah it wouldn't make sense at least te nibiram vanam pravishtavantah
okay
and then the kriya padam of the sentence would be asan pravishtavantah asan astu astu vanam kim bhavati
continue to consider this pravishtavantah as tavatu pratyaya bhagini
am astu atra vayam adya atra stagayamaha agami saptahe vayam agami varge vayam katam पूर्णतया पठितुं शक्नुमः अस्तु अस्तु अहं किञ्चित् गृहपाठं ददामि कृपया कृत्वा आगच्छन्तु अस्तु अहं शीघ्रमेव अहम् ईमेल् प्रेषयामि अद्य अथवा श्वः प्रेषयामि किञ्चित् कृत्वा आगच्छन्तु अस्तु किञ्चिदेव ददामि तत् कृत्वा आगच्छन्तु अस्तु तत् आगामिसप्ताहवर्गे वयं तत् गृहपाठं कृत्वा वयं कथां पठामः अस्तु अस्तु इदानीं वयं शान्तिमन्त्रं वदामः लक्ष्मी भगिनि
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे पत्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनी नमस्कारः
धन्यवादः